सर्वेभ्यो नमः। अस्माकं प्रवर्तमानः विषयः अस्ति चतुर्थी विभक्ति इति, तत्र क्षम्यतां पञ्चमीविभक्ति, पञ्चमीविभक्ति इति, क्षम्यतां। गतवर्गे वयं पुटसङ्ख्या मध्ये 119 मध्ये दृष्टवन्तः, तत्र अर्जुनः रथात् अवतरति अथवा फलं वृक्षात् पतति। वृक्षः अस्ति, फलम् अस्ति वृक्षे, फलं वृक्षात् पतति इति। तत्र यत्र खण्डम् अस्ति, खण्डद्वयं भवति, भागं भवति, एकमेव अस्ति, तत्र विभागं भूत्वा एकम् एकस्थाने एव तिष्ठति, अन्यत् अन्यत्र गच्छति। यत् गच्छति तस्य प्रथमविभक्तिरूपं भवति, यत् तिष्ठति तस्य पञ्चमविभक्तिरूपं भवति। तत्र फलम् अस्ति, वृक्षः अस्ति, फलं पतति, वृक्षः यत् यस्मिन् स्थाने अस्ति तत्र एव तिष्ठति, अतः वृक्षस्य पञ्चमीविभक्ति वृक्षात् इति भवति। फलं तदेव गच्छति, तस्य एव स्थानपरिवर्तनं भवति इति कृत्वा फलं वृक्षात् पतति इति रूपं भवति, तत्र पञ्चमीविभक्तिरूपं। तत्र पञ्चमीविभक्तेः अनेकाः प्रयोगाः अपि सन्ति, तत्र कारणपञ्चमी इति एकम् अपि अस्ति, तत्र कस्मात् कारणात् एतत् भवति इत्युक्ते तत्र पञ्चमीभक्तिरूपं भवति, तत्र एतस्मात् कारणात् एतत् अभवत् इति, तादृश उदाहरणानि अग्रे पश्यामः। अस्तु, पुनःस्मरणार्थं तत्र पञ्चमीभक्तेः रूपम् एकवारं तत्र अकारान्त इकारान्त इति तत्र एकवारं पश्यामः वा। अस्तु, तत्र अकारान्त
महोदय, प्रार्थना महोदय, एकं वयं सर्वे म्यूट् माध्यमे तिष्ठामः चेत् लैन् सम्यक् भवति। भवान् यदा पृच्छति तदा अन्म्यूट् कृत्वा वयम्।
अस्तु महोदय, अत्र अहम् एतद् म्यूट् इति एकम् अस्ति तत् करोमि, यदि किमपि वक्तुम् इच्छति चेत् तत्र अन्म्यूट् कृत्वा वदन्तु सर्वे। समीचीनं वा?
आं महोदय,
आं महोदय।
हा अस्तु, इदानीं सम्यक् वा? अस्तु, अकारान्त पुल्लिङ्ग देवशब्दः पञ्चमी विभक्तिरूपं, तत्र उमा भगिनी वदति वा?
देवशब्द देवः देवौ देवाः, ओके, देवात् देवाभ्यां देवेभ्यः,
देवेभ्यः इति अस्ति। अस्तु, उषा भगिनी, तत्र कविशब्दः? कविभ्यः। अस्तु, बालचेतनी महोदय, इदानीं गुरुः शब्दः?
गुरोः गुरवः,
गुरोः द्विवचने सर्वदा एतत् सुलभमस्ति, भ्यां भ्याम् इति भवति खलु,
गुरुभ्यां,
द्विवचने तावदेव। अस्तु, समीचीनम्। अस्तु, शुभा भगिनी, इदानीं तत्र लता इति आकारान्तस्त्रीलिङ्ग
शब्दः किं महोदय?
आकारान्तस्त्रीलिङ्ग लता,
लता, लतायाः, लताभ्यां, लताभ्यः,
लताभ्यः, समीचीनं भगिनि। अस्तु, इदानीम् उमा भगिनि, तत्र एतत् कुर्मः, तत्र उत्तमः कविः, तत्र किं भवति?
उत्तमः कविः,
हा,
किं करणीयं
तस्य चतुर्थी, तस्य पञ्चमीविभक्तिरूपं?
पञ्चमी उत्तमात् कविः, कवेः,
हा, इदानीं किं भवति? उत्तमात्
कवेः,
उत्तमात् कवेः, हा, द्विवचने,
उत्तमाभ्यां कविभ्यां,
हा,
उत्तमेभ्यः कविभ्यः,
हा, इति भवति, समीचीनम्। अस्तु, उषा भगिनी, उत्तमः गुरुः?
उत्तमः गुरुः उत्तमः उत्तमा उत्तमोः कथं वदनीयं
न न उत्तमः गुरुः यथा उमा भगिनी उक्तवती उत्तमः कविः तत्र उत्तमात् कवेः इति रूपं भवति
गुरोः इति
उत्तमः गुरुः
उत्तमः गुरोः
न न इदानीम् उत्तम तस्यापि परिवर्तनं करणीयं तत्र विशेषण विशेष्यभावः अस्ति प्रथमाविभक्तौ एकवचने उत्तमः गुरुः द्विवचने प्रथमविभक्तिरूपं किं भवति
उत्तमं गुरु गुरुम्
तत् द्वितीयविभक्तिरूपं द्विवचने प्रथमविभक्तिरूपं उत्तमः उत्तमौ उत्तमाः गुरुः गुरु गुरवः खलु हा इदानीं मिलित्वा किं भवति उत्तमः गुरुः
उत्तमः गुरुः
उत्तमौ
उत्तमौ गुरु
हा उत्तमाः
उत्तमाः गुरवः
हा इदानीं तस्य एव पञ्चमविभक्तिरूपं
गुरोः गुरुभ्यां गुरुभ्यः
हा इदानीं तत्र उत्तमः अपि तत्र भवितव्यम् अतः उत्तमः इति पदस्य पञ्चमीभक्तिरूपं किम् अस्ति न न उत्तमः अकारान्तपदमस्ति
उत्तमः
पञ्चमीभक्तिरूपं किम् अस्ति उत्तमः इति पदस्य अस्तु 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 भगिनि भानुचित्रि महोदय एतत् करोति वा
आम् महोदय उत्तमात् गुरोः
हा उत्तमात् गुरोः
उत्तमाभ्यां गुरुभ्याम्
उत्तमाभ्यां गुरुभ्यां हा अपि उत्तमः इति अकारान्त अस्ति अकारान्ते किं भवति पुल्लिङ्गे न उत्तमेभ्यः
उत्तमेभ्यः गुरुभ्यः
हा उत्तमेभ्यः गुरुभ्यः इति
स्त्रीलिङ्ग
अस्ति न उत्तमः
उत्तमः
गुरुः अस्ति विशेषणमस्ति उत्तमः इदानीं समीचीनं वा भगिनि अस्तु
नमस्कारः महोदय क्षम्यतां कुत्र अस्ति महोदय
श्रीप्रिया पेज् 119 पेज् 120 अत्र पञ्चमीविभक्ति इति विषयः
धन्यवादः
नरेश महोदय नमस्कारः अस्तु तर्हि तत्र शुभा भगिनी इदानीं तत्र केवलं तत्र अभ्यासार्थम् एतत् कुर्मः तत्र किञ्चित् योजयित्वा कुर्मः इति तत्र किं कुर्मः आकारान्त भगिनी शुभा भगिनी तत्र लता इति पदस्य विभक्ति उक्तवती भवती तत्र सुन्दरी इति अस्ति चेत् किं भवति अथवा देवी देवी इति देवी इति वदतु शुभा
भगिनी
देवी
देव्याः देवीभ्यां देवीभ्यः
हा इदानीं तत्र एतत् कुर्मः उत्तमा देवी इति
उत्तमा देवी उत्तमायाः देव्याः उत्तमाभ्यां देवीभ्यः देवीभ्यां उत्तमाभ्यः देवीभ्यः
हा इति भवति समीचीनं
देवी अस्ति वा दैवी अस्ति वा महोदय
न देवी देवी पुस्तके दैवी दत्तमस्ति देवी अपि पदमस्ति देवी इति स्त्रीलिङ्गपदमस्ति खलु
भूदेवी
किमर्थं
दैवी अपि दत्तमस्ति
दैवी देवविषय तत्र दैवी दैवीशक्तिः इति प्रायशः किमपि अस्ति तत्र विशेषणम् इति आसुरीशक्ति दैवीशक्ति इति
शब्दमञ्जरी पुस्तके दत्तमस्ति इकारान्तः स्त्रीलिङ्गः देवीशब्दः.
हा, देवीशब्दः भिन्नं, दैवीशब्दः भिन्नं भगिनि. हा, तत्र दैवी इति शक्ति, दैवी इति अपि स्त्रीलिङ्गे अस्ति, अत्र उदाहरणार्थं दत्तमस्ति, किन्तु देवी अपि शब्दं समीचीनमेव. हा, तत्र भूदेवी इति तादृशदेवीपदम्. अत्र दैवी इत्युक्ते शक्ति, आसुरी तत्र शक्ति अथवा अन्यत् किमपि अपि आसीत्. पदं भिन्नम् अस्ति. हा, दैवी भिन्नम् अस्ति, देवी भिन्नम् अस्ति. हा, तादृशर्थे सत्यं. हा,
भिन्नपदं भावः, तस्य भावः दैवी.
दैवी, हा, तादृश अर्थे अस्ति महोदय, सत्यं. भिन्नम् अस्ति, अर्थं भिन्नं, समानार्थकपदम् इति न वक्तुं शक्नुमः तत्र. हा, अस्तु, अग्रे तत्र श्रीप्रिया भगिनी, तत्र सुन्दरी इति पदस्य पञ्चमीभक्तिरूपाणि वदति वा?
आम् महोदय, सुन्दर्याः, सुन्दरीभ्यां, सुन्दरीभ्यः.
हा इति, अस्तु, नरेश महोदय, तत्र सुन्दरी देवी इति पदस्य पञ्चमीभक्तिरूपाणि. नरेश महोदय न श्रूयते, अन्म्यूट् कृत्वा वदतु महोदय. एकनिमिषः अहमेव करोमि अत्र, एकनिमिषः. हा, इदानीं वदतु महोदय.
सुन्दर्याः देव्याः, सुन्दरीभ्यां देवीभ्यां, सुन्दरीभ्यः देवीभ्यः.
हा इति, इति अस्ति, समीचीनं महोदय, समीचीनम्. अस्तु, अस्तु, तर्हि तत्र एकवारं तत्र किं, तत्र अभ्यासः यदस्ति पेज् 120 मध्ये, तत् एकवारं तत् कृत्वा अग्रे गच्छामः. अस्तु, तर्हि तत्र, हा, उमा भगिनी, तत्र प्रथम अभ्यासः आरम्भं करोति वा पेज् 120 मध्ये?
कुत्र?
पेज् 120 मध्ये, अधोभागे. हा, अधोभागे
पञ्चमी विभक्तिरूपाणि लिखत.
हा,
तद्
तदेव. हा,
ओके, देशात्, देशाभ्यां, देशेभ्यः.
हा, तत्र देशात् इति अस्ति, तत्र कीदृशपदम् इति एकवारम् उक्त्वा वदतु भगिनि. तत्र देशात् इति अस्ति चेत् तत् पुल्लिङ्गपदं वा?
इत्युक्ते,
हा, तत् पुल्लिङ्गपदं वा,
अकारान्त
वा? अकारान्त, देशः इति. अतः देशाभ्याम् अपि बहुवचने देशेभ्यः इति भवति. समीचीनं भगिनि, अस्तु, अग्रे उषा भगिनि, तत्र
यज्ञात् यज्ञः अकारान्तः पुंलिङ्गशब्दः, पञ्चमी विभक्ति अस्ति, यज्ञात् यज्ञाभ्यां यज्ञेभ्यः.
हा, समीचीनं भगिनि, अस्तु, भानचित्रि महोदय अग्रे.
आं महोदय, मुनयोः करणीयं महोदय.
मुनिभ्याम् इति, मुनिभ्याम् इति अस्ति.
मुनेः मुनिभ्यां, मुनिभ्यः.
हा, तत्र किं कीदृशपदं तत्र?
मुनिः इति इकारान्तपुल्लिङ्गपदं महोदय.
पुल्लिङ्गपदं, समीचीनं. हा, समीचीनं महोदय, अस्तु, शुभा भगिनी अग्रे. यतेः,
यतिः इति इकारान्तपुल्लिङ्गपदं महोदय. यतेः, यतिभ्यां, यतिभ्यः.
यतिभ्यः, हा, समीचीनं भगिनि, अस्तु, अग्रे श्रीप्रिया भगिनि.
मृत्यु इति उकारान्तपुंलिङ्गमृत्युशब्दः, मृत्योः, मृत्युभ्यां, मृत्युभ्यः.
हा, तत्र मृत्युभ्यां, हा, मृत्युभ्यां, मृत्युभ्यः, समीचीनं भगिनि. हा, नरेश महोदय अग्रे.
आं महोदय, अतिथिभ्यः, अतिथिः इकारान्त पुल्लिङ्गशब्दः, अतिथेः अतिथिभ्याम् अतिथिभ्यः
अतिथिभ्यः समीचीनम् अस्तु. अग्रे उषा भगिनि.
विद्यालयेभ्यः विद्यालयः अकारान्तपुंलिङ्गः पञ्चमी विभक्ति अस्ति. विद्यालयात् विद्यालयाभ्यां विद्यालयेभ्यः.
हा समीचीनं. हा उमा भगिनि.
स्थालिकायाः स्थालिका आकारान्त स्त्रीलिङ्गी शब्द. स्थालिकायाः स्थालिकाभ्यां स्थालिकाभ्यः
स्थालिकाभ्यः समीचीनं भगिनि. हा अस्तु. पानचित्रि मोदी अग्रे.
ईकारान्तस्त्रीलिङ्गम् इति मन्ये.
नदीवत्
यथा नदी महोदय.
हा नदीवत् नदीवत्
महोदय. वीत्याः वीथीभ्यां
समीचीनं महोदय. अस्तु.
वीथिः न
किं भगिनि?
इकारान्त वा ईकारान्त
दीर्घ
नदीवत् वा मुनिवत्
मुनिवत् न मतिवत् इति वा
मतिवत्
न महोदय. वीथिभ्याम् इति दीर्घ ईकारः अस्ति द्विवचने दीर्घ ईकारः दत्तम् अस्ति खलु तदर्थमेव तत् ईकारान्तशब्दः इति.
समीचीनं भगिनि.
ओके.
तत्र पुल्लिङ्गशब्द अथवा मतिशब्दवत् आसीत् चेत् द्विवचने
मतिभ्याम् इति भवति किन्तु अत्र वीथीभ्याम् इति दीर्घ ईकारः दत्तमस्ति खलु नदीशब्दवत्.
ईकारान्त स्त्रीलिङ्ग अस्ति.
दीर्घ ईकार नदीशब्दवत् अस्ति.
स्त्रीलिङ्ग अस्ति महोदय वीथी.
प्रश्नः आसीत् तत्र दीर्घ ईकारः वा ह्रस्व ईकारः वा इति अन्ते.
दीर्घ ईकार महोदय.
समीचीनं भगिनि. अस्तु. रघुपति महोदय नमस्कारः.
नमस्कारः महोदय.
नमस्कारः.
चिन्ता
मास्तु महोदय. अस्तु. श्रीप्रिया भगिनी अग्रे. चिन्ता मास्तु. तत्र पेज् 120 मध्ये स्मः महोदय. 120 पञ्चविभक्ति. श्रीप्रिया भगिनी तत्र दैव्याः
ईकारान्तः स्त्रीलिङ्गः दैवी शब्दः दैव्याः दैवीभ्यां दैवीभ्यः.
हा इति समीचीनं भगिनि. शुभा भगिनी अग्रे.
बीजः इति अकारान्त पुल्लिङ्गशब्दः. बीजात् बीजाभ्यां बीजेभ्यः
बीजेभ्यः. तत्र एकारः इति बीजेभ्यः इति तत्र अकारान्तपदे भवति अन्यत्र कुत्रापि भवति वा तादृशः?
न महोदय.
पुल्लिङ्गे अकारान्त पुल्लिङ्गे भवति अपि अकारान्त
नपुंसकलिङ्गे
किन्तु केवलम् अकारान्त एव भवति खलु. ईकारान्त मध्ये तत्र ए इति न आगच्छति. समीचीनम्. अस्तु. नरेश महोदय अग्रे.
राज्यात् राज्यः अकारान्त राज्य
राज्यं वा राज्य राज्यम् इति नपुंसकलिङ्गपदमिति चिन्तयामि महोदय. राज्यम् इति
नपुंसकलिङ्ग राज्यात् राज्याभ्यां राज्येभ्यः.
राज्येभ्यः समीचीनम्. अस्तु. इदानीं रघुपति महोदय जानाति वा कुत्र स्मः इति? इदानीं तत्र अग्रे अस्ति तत्र वस्तुनः इति.
वस्तुनः इति अस्ति. वस्तुनः इति वस्तुनाभ्यां वस्तुभ्यः
हा मधु शब्दवत् अस्ति इति मन्ये महोदय. तत्र उकारान्त नपुंसकलिङ्ग शब्दः अस्ति. गुरुभ्यः इति नपुंसकलिङ्गे अस्ति किन्तु अत्र पञ्चविभक्ति मध्ये तत्र केवलम् एकवचने तत्र किञ्चित् भिन्नः अस्ति तद्दत्तम् वस्तु इति उकारान्त नपुंसकलिङ्गशब्दः. एतत् बहुपूर्वं वयं दृष्टवन्तः पेज् 13 मध्ये तत्र कोष्टकमस्ति. तद् तत्र वस्तु इति एव दत्तमस्ति उदाहरणम् उकारान्त
नपुंसकलिङ्गः
इति. समीचीनं महोदय. अस्तु हा उमा भगिनी अग्रे
अग्रे कुत्र
नेत्रभ्यः
नेत्रम् अकारान्त नपुंसकलिङ्गं नेत्रा नेत्रभ्यां नेत्रभ्यः
न महोदय
नेत्र इति किं भवति
नेत्रं
तत्र नेत्रम्
एकनिमिषं नेता अस्ति वा ऋकारान्तशब्दः तदा एकनिमिषं नेतृः नेतृभ्यां नेतृभ्यः
नेतृः न
नेतुः
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 नेत्र नेत्रं
न न नेत्रं नास्ति नेत्रं नास्ति नेता इति अस्ति नेता इति अस्ति नेता ऋकारान्तपदम् अस्ति नेत्र ऋकारान्तपदं तत्र उमा भगिनि तत्र 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 एतत् पश्यतु तत्र प्रायशः माता इति पश्यतु केवलं माता इति तत्र ऋकार मातुः इति अस्ति तादृश एव किं भगिनि
कर्ता इति अस्ति
कर्ता अपि अस्ति कर्ता किन्तु भगिनी तत्र शुभ भगिनी अहं किमर्थं माता इति चितवान् इत्युक्ते तत्र रेफः ऋकारान् ऋकारः किमपि नास्ति इति अतः केवलं मातृ इति ऋकारान्तपदम् अस्ति पूर्वं रेपः कुत्रापि नास्ति अतः मातुः इति भवति अत्र कर्ता इति तत्र किं भवति कर्तुः इति अस्ति खलु ततः वयं चिन्तयामः ओ अस्तु तत्र ऋकारान्तपदम् अतः रेपः कुत्रापि भवति इति चिन्तनं भवति इति किन्तु मातुः किन्तु मातुः इति पश्यामः अथवा पितुः इति पश्यामश्चेत् तत्र अवगच्छामः ऋकारान्तपदम् अस्ति चेत् अपि अत्र अस्मिन् अस्यां विभक्त्यां रेपः नास्ति इति. अस्तु उमा भगिनी तत्र
माता मातरौ मातरः प्रथमं
अस्तु
मातुः मातृभ्यां
पिता पिता इति चिन्तयतु पितुः पितृभ्यां
पितृभ्यां पितृभ्यः
इदानीं नेता इति
नेता नेतुः नेतृभ्यां नेतृभ्यः
यदि नेत्रम् आसीत् चेत् तत्र पञ्चमीभक्ति
भविष्यति
न नेत्रं रकारः अस्ति चेत्
नेत्रेभ्यः
इति बहुवचने भवति नेत्रेभ्यः ऋकारः नास्ति तत्र अस्तु नेतृभ्यः नेतृभ्यः दत्तं नेत्रेभ्यः इति न दत्तम् अस्तु समीचीनम् अस्तु उषा भगिनी अग्रे
अस्तु महोदय. सूक्तेः
न न मातृभ्याम् इति
मातुः मातृभ्यां मातृ मातुः ऋकारान्तः
मातृ इति ऋकारान्त
मातृशब्दः
ऋकारान्त स्त्रीलिङ्ग मातृशब्दः
स्त्रीलिङ्गः पञ्चमी विभक्ति अस्ति मातुः मातृभ्यां मातृभ्यः
मातृभ्यः समीचीनं भगिनि. अस्तु अग्रे भानुचेतनी महोदय. न न सूक्तेः सूक्तेः
सूक्तेः उक्तिः उक्तिः इति इकारान्त स्त्रीलिङ्गं महोदय.
सूक्तिः इति कीदृश हृस्वैकारः मतिशब्दवत् मतिशब्दवत्
मतिवत्
मतिवत्
सूक्तेः सूक्तिभ्यां सूक्तिभ्यः
हा अतः तत्र सूक्तिः इति हा हृस्वैकार स्त्रीलिङ्ग सूक्तिशब्दः हा हा अस्तु अग्रे नूतनतया कोऽपि आगतवान् वा मधुसूदन महोदय वा अथवा अन्य कोऽपि अस्तु हा अस्तु तर्हि तत्र हा इदानीं शुभा भगिनी अग्रे.
बुद्धिः इकारान्तस्त्रीलिङ्गशब्दः बुद्धेः बुद्धिभ्यां बुद्धिभ्यः
बुद्धिभ्यः समीचीनं हा अस्तु श्रीप्रिया भगिनी.
इकारान्तः स्त्रीलिङ्गः संस्कृतिशब्दः
ह्रस्व इकारः वा दीर्घ इकारः वा भगिनी संस्कृति ह्रस्वैकारः
संस्कृतेः संस्कृतिभ्यां संस्कृतिभ्यः
हा तत्र ह्रस्वैकार अस्ति चेत् कुत्र अस्ति रूपद्वयं
चतुर्थी पञ्चमी
हा अत्र पञ्चमी विषये कस्मिन् वचने
एकवचने
हा एकवचने हा तत्र संस्कृतेः इति एकं रूपम् अन्यत् रूपं
संस्कृत्याः
संस्कृत्याः समीचीनं भगिनि हा समीचीनम् अस्तु नरेश महोदय अग्रिम अभ्यासः आरम्भं करोति वा.
आम् महोदय. महाभारतयुद्धार्थं कस्मात् राज्यात् कः आगतवान् इति जानीत यथोदाहरणं वाक्यानि च वदत. उदाहरणं विराटराजः मत्स्यदेशः विराटराजः मत्स्यदेशात् आगतवान्. सात्यकी सात्यकी द्वारका सात्यकिः द्वारकात् आगतवान्.
महोदय तत्र द्वारका इति अस्ति तत्र किं करणीयं तत्र
द्वारकात्
न न
आगतवान्
अस्तु अस्तु तत्र विराटराजः विराटराजः मत्स्यदेशः इति दत्तमस्ति हा तत्र मत्स्यदेशात् इति भवति वाक्यं मत्स्यदेशात् इति विभक्ति का तत्र
पञ्चमीविभक्ति
पञ्चमीविभक्ति अस्तु मत्स्यदेशः तस्य पञ्चमीविभक्तिः अस्ति मत्स्यदेशात् इति इदानीं द्वारका इति दत्तमस्ति द्वारका इति कीदृशपदमस्ति तत्
द्वारकायाः
हा समीचीनं हा 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 समीचीनं हा इदानीं वाक्यं
सात्यकिः द्वारकायाः आगतवान्
हा समीचीनं महोदय तत्र पेज् 119 मध्ये उदाहरणानि दत्तानि सन्ति खलु तत्र अर्जुनः रथात् अवतरति चित्रेण सह तत्र पश्यतु तत्र कृष्णः मथुरायाः आगच्छति इति मथुरा अत्र द्वारका इति तादृश अस्तु अग्रे रघुपति महोदय द्वारकायाः इति वाक्यं भवति समीचीनं महोदय हा रघुपति महोदय
भगदत्तः भगदत्तः प्राग् प्राग्ज्योतिषमस्ति अकारान्त नपुंसकलिङ्गमस्ति अतः भगदत्तः प्राग्ज्योतिषात् आगतवान्
आगतवान् समीचीनं हा अस्तु अन्य कोऽपि अस्ति वा अत्र ये नाम न उक्तवान् अथवा उक्तवती अस्तु गीताञ्जलि भगिनी अस्ति वा नमस्कारः गीताञ्जलि भगिनी वा अस्तु हा अस्तु उमा भगिनी अग्रे पठति वा
वेरमाय
द्रुपदः
समाप्तं तदनन्तरं
तत्र न द्वितीय अभ्यासः तत्र सात्यकीः भगदत्तः
सात्यकीः तु अहं श्रुतवती ज्ञातवती तदनन्तरं
भगदत्तः अपि कृतम्
इदानीं द्रुपदः द्रुपदः पाञ्चालदेशः ओके द्रुपदः पाञ्चालदेशात् आगतवान्
हा समीचीनं भगिनि अस्तु उषा भगिनि अग्रे
कर्णः अङ्गदेशात् आगतवान्
हा समीचीनम् अस्तु भानुचैतन्य महोदय बृहद्रथः
बृहद्रथः कोसलात् आगतवान्
हा समीचीनं हा शुभा भगिनि
श्रुतायुधः कलिङ्गात् आगतवान्
हा समीचीनं श्रीप्रिया भगिनि श्रीप्रिया भगिनी न श्रूयते अस्तु नरेश महोदय
जयत्सेनः मग्धः जयत्सेनः मग्धात् आगतवान्
मगधात् आगतवान् हा समीचीनं रघुपति महोदय
हा महोदय शल्यः मद्रदेशः अकारान्तपुल्लिङ्ग अस्ति शल्यः मद्रदेशात् आगतवान्
हा समीचीनं हा अस्तु अग्रे अन्य कोऽपि अस्ति वा तत्र गीताञ्जलि भगिनी इति मन्ये किन्तु न जानामि अस्तु अस्तु तर्हि उमा भगिनी अग्रे
सुदक्षिणः काम्बोजदेशः ओके सुदक्षिणः काम्बोजदेशात् आगतवान्
हा समीचीनं हा उषा भगिनी
नीलः माहिष्मत्याः आगतवान्
माहिष्मत्याः आगतवान् समीचीनं भगिनि अस्तु भानुचैतन्य महोदय अग्रे
भीष्मः हस्तिनापुरात् आगतवान्
हा समीचीनं हा शुभा भगिनि
दृष्टकेतुः चेदिदेशात् आगतवान्
हा समीचीनं श्रीप्रिया भगिनि
विन्दः अवन्त्याः आगतवान्
अवन्त्याः आगतवान् समीचीनं हा नरेश महोदय
पाण्डवाः इन्द्रप्रस्थात् आगतवान्
आगतवन्तः आगतवन्तः हा समीचीनं महोदय अस्तु रघुपति महोदय शकुनिः
शकुनिः गान्धार अकारान्त नपुंसकलिङ्गमस्ति शकुनिः गान्धारात्
आगतवान् समीचीनं महोदय अस्तु उमा भगिनी अग्रे इदानीं बृहत्क्षत्रः
केकयात् आगतवान्
हा केकयात् आगतवान् समीचीनं हा उषा भगिनी अन्तिमं
जयद्रथः सिन्धुदेशात् आगतवान्
हा सिन्धुदेशात् आगतवान् हा तत्र पञ्चमीभक्तिरूपं तत्र पदद्वयं दत्तमस्ति कुत्र पञ्चमीभक्तिरूपं भवति कुत्र प्रथमाविभक्तिरूपं भवति तत्र भानुचित्रे महोदय वदति वा एकवारम् यानि वाक्यानि वयं रचितवन्तः तत्र पदद्वयं दत्तमस्ति. कस्य प्रथमविभक्तिरूपं भवति, कस्य पञ्चमीविभक्तिरूपं भवति?
महोदय, कस्य
तत्र पदद्वयं दत्तमस्ति खलु महोदय?
आं महोदय, प्रथमपदं यथा कर्ता अस्ति सः प्रथमविभक्ति, यस्य स्थानात्
स्थानं यत् अस्ति
सः आगच्छति तत् पञ्चमीविभक्त्यां.
समीचीनं, समीचीनं महोदय, समीचीनं, समीचीनं. अस्तु, इदानीम् इदानीं शुभा भगिनी अग्रिम अभ्यासः आरम्भं करोति वा?
आं महोदय. एतासु का कुतः आगता इति वदत. गान्धारी गान्धारं, गान्धारी गान्धारात् आगतवती.
हा, समीचीनं. हा, श्रीप्रिया भगिनी अग्रे.
अम्बा काश्याः आगतवती.
हा, समीचीनं. हा, नरेश महोदय.
कुन्ती काम्बोजात् आगतवती.
आगतवती, समीचीनं. हा, अस्तु. रघुपति महोदय.
उलूपी नागक्षेत्रात् आगतवती.
नागक्षेत्रात् आगतवती, हा, अस्तु, समीचीनं. उमा भगिनी.
द्रौपदी पाञ्चालात् आगतवती.
हा, उषा भगिनी.
माद्री मद्रदेशात् आगतवती.
हा, समीचीनं. हा, बालचित्रं महोदय अन्तिमम्. रुक्मिणी बालचित्रं महोदय न श्रूयते महोदय. अस्तु, शुभा भगिनी.
रुक्मिणी कुण्डिननगरात् आगतवती.
हा, इति समीचीनं भगिनि. अस्तु, अग्रे श्रीप्रिया भगिनी अग्रिम अभ्यासम् आरम्भं करोति वा?
अत्र विनाशमार्गः दर्शितः अस्ति. गीताश्लोकौ परिशील्य यथोदाहरणं वाक्यानि लिखत. उदाहरणं विषयध्यानात् सङ्गः जायते. सङ्गात् कामः जायते.
हा, इति समीचीनं भगिनि. हा, तत्र विनाशस्य अथवा प्रणाशस्य समानार्थकपदं, तस्य मार्गः किम् अनुसरामश्चेत् प्रणाशः अथवा विनाशः विनाशं प्राप्नुमः इति मार्गं दत्तमस्ति अत्र. किन्तु मार्गं किम् अनुसरामः वा अथवा मास्तु वा? अस्तु, अग्रे नरेश महोदय अग्रिमम्.
सङ्गात् सङ्गात् कामः जायते.
हा, सङ्गात् कामः जायते, समीचीनं. हा, अग्रे उमा भगिनी.
कामात् क्रोधः जायते.
हा, रघुपति महोदय.
क्रोधात् सम्मोहः जायते.
हा, समीचीनम्. उषा भगिनी.
श्रूयते महोदय.
हा, गीतञ्जलि भगिनी, अधुना श्रूयते. अहं चिन्तितवान् भवती अस्ति इति, किन्तु इदानीं श्रूयते भगिनि. हा, चिन्ता मास्तु भगिनि. 121 पेज् 121
सम्मोह स्मृति विभ्रमः जायते.
हा, स्मृति विभ्रमः जायते, समीचीनं, समीचीनं भगिनि. हा, अस्तु, अग्रे बानचेतनी महोदय. बानचित्री महोदय न श्रूयते महोदय.
महोदय, इदानीं महोदय.
हा, इदानीं श्रूयते, इदानीं श्रूयते. हा,
स्मृतिभ्रंशात् बुद्धिनाशः जायते.
हा, अस्तु, अग्रे शुभा भगिनी.
बुद्धिनाशात् प्रणाशः जायते.
हा, इति, अस्तु, तत्र सोपान. हा,
प्रणाशात् सर्वं नाशः जायते.
हा, सत्यं भगिनी, प्रणाशः भवति चेत् अन्यत् किमपि नास्ति अत्र. हा, सत्यं, हा, सत्यं. हा, अस्तु, अस्तु, तर्हि गीताञ्जलि. हा,
प्रणाशात् प्रणाशात् अनन्तरं प्रणाशात् जन्म जायते.
तदपि समीचीनमेव महोदय, सत्यं सत्यम् अस्तु। हा पुनर्जन्मः भवति इति, हा सत्यं।
सनातनधर्मे प्रणाशात् इति किमपि नास्ति महोदय।
हा सत्यं सत्यं,
प्रणाशात् इत्युक्ते तदेव यद् अवकाशः जीवने दत्तं तद् निरुपयोगं कृत्वा भवान् भवति अन्य शरीरधारणं करोति।
समीचीनं महोदय, समीचीनं, हा समीचीनम् अस्ति महोदय, सत्यं। तदनन्तरं किमपि अस्ति एकमेव जन्म इति, तदनन्तरं किमपि न भवति इति, एतत्तु अस्माकं मतं नास्ति खलु। हा सत्यमेव, अस्तु समीचीनं महोदय, धन्यवादः। हा अस्तु, अग्रे रघुपतिमहोदय आरम्भं करोति वा?
आवरणे स्थितस्य पदस्य उचितरूपेण रिक्तं स्थानं पूरयत। गाण्डीवं संस्कृते हस्तात्,
हा गाण्डीवं हस्तात् स्रंसते,
स्रंसते,
हा स्रंसते, स्रंसते, हा हा। तत्र पञ्चमीभक्तिरूपं तत्र वयं पूर्वमपि उक्तवन्तः, तत्र किम् अस्ति, फलम् अस्ति, वृक्षः अस्ति, फलं वृक्षात् पतति। तत्र कस्य तत्र फलम् इति, फलं पतति, अतः फलं तु प्रथमविभक्तिरूपं, प्रथमविभक्त्यन्तं, किन्तु यत् स्थानं तत्र भागद्वयं भवति खलु, एकं गच्छति अन्यत्र गच्छति, एकं तदेव स्थाने तिष्ठति, तस्य स्थानस्य परिवर्तनं न भवति। यस्य स्थानस्य परिवर्तनं न भवति तत् पञ्चमविभक्त्यन्तं भवति वाक्ये। अत्र हस्तः, हस्तः तस्मिन्नेव स्थाने एव भवति, किन्तु गाण्डीवं स्रंसते, अतः गाण्डीवं हस्तात् स्रंसते इति रूपं भवति। अस्तु समीचीनं, हा अस्तु, अग्रे नरेश महोदय।
क्षम्यतां
महोदय, अधो पतति इति, इट् फाल्स् इति, इट् फाल्स् फ्रम् हिस् हेण्ड्
धन्यवादः।
गङ्गा स्वर्गात् अवतीर्णा,
हा तत्र अवतीर्णा इति विशेषणम् अस्ति कस्य पदस्य?
गङ्गा,
गङ्गा इति पदस्य, हा गङ्गा स्वर्गात् अवतीर्णा इति, समीचीनं महोदय। हा अस्तु, उषा भगिनी।
सैनिकः इषुं स्वीकरोति, तूणीरः, तूणीरः किं पदमस्ति महोदय, न जानामि।
तूणीरः क्विवर् भगिनि, क्विवर्, क्विवर् यस्मिन् यस्मिन् इषु अस्ति,
यस्मिन् बाणे
बाणाः, बाणाः सन्ति,
बाणाः सन्ति,
बाणाः। तूणीरः, तूणीरः किं पदमस्ति, तूणीरः
तूणीरः अकारान्तपदमस्ति भगिनि,
अकारान्तपदमस्ति
महोदय, तदेव तत्र मूल, तत्र प्रथमविभक्तिरूपमेव दत्तमस्ति तत्र,
तूणीरात्, सैनिकः इषुं तूणीरात् स्वीकरोति,
हा समीचीनं भगिनि, हा अस्तु, उमा भगिनि।
ओके, पद्मनाभस्य मुखपद्मात् गीता विनिसृता,
हा विनिसृता, समीचीनं, हा तत्र गीता इति, भगवद्गीता इति पदस्य विशेषणमस्ति विनिसृता इति, अस्तु समीचीनं
महोदय। अत्र विनिसृता अपि अपि च संस्कृते स्रंसते इति धातु समान एव,
न न न न न तत्र
श्रुधातु एव किञ्चित् तत्र उपसर्गयुक्त भवति अहं चिन्तयामि, न वा श्रुधातु, सरति,
सरति इति अहं मन्ये,
एकनिमिषम्,
प्रायशः तत्र विनिसृता इति तत्र सृ धातु प्रायशः अस्ति, किन्तु स्रंसते इति तत्र प्रायशः भिन्नधातु अस्ति इति मन्ये. किन्तु हा किन्तु दृष्ट्वा एव वक्तव्यं. हा समीचीनप्रश्नः भगिनि. हा अस्तु अग्रे भानुचित्री महोदय. भानुचित्री महोदय न श्रूयते महोदय. अस्तु
महोदय
इदानीं श्रूयते.
महोदय मुखपद्मं वदामि वा एवं
मुखपद्मात् तद् कृतम् अग्रिमं
विनिसृता तदेव इदानीं कृतं. युक्तियुक्तवचः बालात् बालात् अपि
बालात् शुकात् अपि गृह्णातु गृह्णातु. सर्वे अवगच्छन्ति खलु एतत्? तत्र वचनं समीचीनवचनं यः कोऽपि वदतु बालः वा शुकः वा वक्त्रा मा पश्यतु वचनमेव. यदि वचनं सम्यक् अस्ति चेत् तत् गृह्णातु. अतः कीदृशवचः यस्मिन् युक्तिः अस्ति युक्तियुक्तवचः तद् बालात् भवति चेदपि अथवा शुकात् भवति चेदपि गृह्णातु. हा तत्र युक्तियुक्तवचः इति कोऽपि वद जानाति वा तत्र विभक्ति का इति? प्रायशः कर्मदारे समास इति वचः. किन्तु तत्र क्रियापदम् अस्मिन् वाक्ये क्रियापदं किम् अस्ति? गृह्णातु. तत् सकर्मक वा अकर्मक वा?
सकर्मकमिति मन्ये महोदय.
अपि गृह्णातु इति पदस्य पुरुषः कः? एकवचनं. अस्तु समीचीनम्. अस्तु इदानीं तत्र किं वचशब्दः तत्र तत्र गृह्णातु किं गृह्णातु इति प्रश्नः भवति खलु. अत्र किं गृह्णामः अत्र?
युक्तियुक्तवचः.
हा तद् गृह्णामः. अतः तदेव कर्मपदं
द्वितीयविभक्तिरूपं.
हा द्वितीयविभक्त्यन्तम् अस्ति. हा समीचीनं. हा अस्तु अग्रे
प्रथमविभक्ति एकवचनरूपं किं?
तत्र प्रायशः वचसिति प्रायशः नपुंसकलिङ्गपदम् इति मन्ये भगिनि. अतः तदेव रूपम् इति चिन्तयामि. नपुंसकलिङ्गशब्दः. अतः अतः तत्र रूपसमानम् अस्ति किन्तु विभक्ति तु अत्र अस्मिन् वाक्ये विभक्ति तु द्वितीया विभक्ति. अस्तु अग्रे शुभा भगिनी.
अभिमन्युः चक्रव्यूहात् बहिः आगन्तुं न शक्तः.
न शक्तः. समीचीनं भगिनी. हा अस्तु अग्रे श्रीप्रिया भगिनी.
दुर्योधनः वैशम्पायन सरोवरात् बहिः आगच्छति.
हा समीचीनं. हा नरेश महोदय अग्रे.
कर्णः इन्द्राय कर्णाभ्यां कुण्डलं दत्तवान्.
कर्णौ स्तः कर्णयोः कुण्डलद्वयम् अस्ति खलु अथवा कुण्डलम् अस्ति अतः कर्णाभ्यां हा कुण्डलं दत्तवान् कस्मै दत्तवान् इन्द्राय दत्तवान् इति समीचीनं महोदय रघुपति महोदय अग्रे
राज्याभिषेकार्थं नद्यः इति अस्ति नदीभ्यः जलम् आनयति
हा तत्र बहुवचने अस्ति हा नद्यः इति बहुवचने अस्ति समीचीनं नदी नद्यौ नद्यः नद्याः
नदीभ्यः
नदीभ्यः समीचीनं महोदय हा अस्तु गीताञ्जलि भगिनी अग्रे
राजसूययागार्थं देशेभ्यः अर्जुनः धनानि रत्नानि च आनयति
हा इति समीचीनं भगिनी हा अस्तु अग्रे उमा भगिनी
कृष्णः द्वारकायाः इन्द्रप्रस्थम् आगतवान्
हा अस्तु समीचीनं भगिनि हा अस्तु उषा भगिनि
वनवाससमये पाण्डवाः द्वैतवनात् समन्तपञ्चकं गतवन्तः
तत्र अहं दृष्टवान् समन्तपञ्चकम् इत्युक्ते कुरुक्षेत्रम् इति मन्ये समन्तपञ्चकम् इत्युक्ते किन्तु एकवारं द्रष्टव्यमस्ति हा कोऽपि दृष्ट्वा वदतु किन्तु तत् समन्तपञ्चकम् इत्युक्ते कुरुक्षेत्रम् इति मन्ये अस्तु बाणचैतन्य महोदय अग्रे
महोदय कर्णः इन्द्रात् शक्त्यायुधं स्वीकृतवान्
हा समीचीनं महोदय समीचीनं कस्मात् स्वीकृतवान् ददामश्चेत् तत्र चतुर्थी स्वीकुर्मश्चेत् पञ्चमी कस्मात् कस्मात् स्वीकुर्मः कस्मै ददामः दद्मः
समन्तकपञ्चकम् इति तडागः नास्ति वा महोदय कुरुक्षेत्रं वा
कुरुक्षेत्रे सन्ति तत्र
पुनरेकवारं वदतु महोदय तत्र
समन्तपञ्चक इति तडागः सरोवरः इति भवति तत्र पञ्च सरोवराः समन्तपञ्चक फैव् लेक्स् क्रियेटेड् बै राम जमदग्न्य लेटर् एस् परशुराम आफ्टर् किलिङ्ग् द आल् शक्त्यास् इति अस्ति कुरुक्षेत्र
हा कुरुक्षेत्र अस्तु
कुरुक्षेत्र आल्सो काल्ड् एस् समन्तपञ्चक बिकास् आफ् दि फैव् लेक्स् क्रियेटेड् बै राम जमदग्न्य अथवा परशुरामः आफ्टर् किलिङ्ग् आल् दि क्षत्रियास्
अस्तु 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 धन्यवादः महोदय अस्तु अतः सुकुरुक्षेत्रमेव अस्तु शुभा भगिनी अग्रे
भीष्मः काश्याः कन्याः आनीतवान्
हा तत्र काश्याः इति पञ्चमीविभक्तिरूपम् अस्ति समीचीनं भगिनि तत्र कन्याः इति विभक्ति का तत्र
विभक्ति वा महोदय
वचनं प्रथमतया वचनं तदनन्तरं विभक्ति
कन्या हि तु बहुवचनरूपं
हा इदानीं विभक्ति
द्वितीया विभक्ति
हा हा समीचीनं भगिनि तत्र आनीतवान् इति अस्ति हा भीष्मः आनीतवान् कर्तृपदं भीष्मः किन्तु कन्याः आनीतवान् किम् आनीतवान् अथवा काम् आनीतवान् कन्याः आनीतवान् समीचीनं भगिनि हा अस्तु
महोदय अद्य दिने एव भीष्म एकादशी अपि अस्ति महोदय
ओ बहु समीचीनमस्ति अस्तु
हा
अस्तु भीष्मस्य नामस्मरणं जातम् अद्य अस्तु समीचीनं
विष्णुसहस्रनाम दत्तम्
हा विष्णुसहस्र अस्तु 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 हा अस्मिन् दिने एव दत्तमस्ति तत् भीष्म उक्तवान् वा
तद् अहं न जानामि
अस्तु किन्तु
एकादशी दिने सः अम्पसयायां स्थित्वा वदति विष्णु
विष्णुसहस्रनाम उक्तवान् प्रथमं
विष्णुसहस्रनाम उक्तवान्
भीष्माष्टमी इति जनाः वदन्ति अतः अहं न वक्तुं न शक्नोमि.
अस्तु 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 भगिनि. भगिनि तत्र तत्र अस्मिन् दिने तत्र तदनन्तरं भवती किम् उक्तवती भीष्मः कुत्र स्थित्वा
अम्पशय्या इति
शरशय्या मध्ये अथवा ईशुशय्या तत्र बेड् आफ् एरोस् इति समीचीनं भगिनि. अस्तु धन्यवादः. अस्तु समीचीनं. अस्तु अग्रे श्रीप्रिया भगिनि.
अर्जुनः अग्नेः गाण्डीवं स्वीकृतवान्.
हा अग्नेः गाण्डीवं स्वीकृतवान् समीचीनं भगिनि. अस्तु हा अग्रे तत्र अग्रिम अभ्यासः तत्र उषा भगिनी आरम्भं करोति वा.
आं महोदय. कः कस्मात् किं प्राप्तवान् इति अधः लिखितमस्ति एतस्य लिखितमस्ति महोदय.
लिखितम् अस्ति सत्यं लिखितम्
अस्ति. एतस्य आधारेण यतोदाहरणं वाक्यानि वदत. उदाहरणम् अर्जुनः शिवात् पाशुपतास्त्रं प्राप्तवान्. शिवात् इति पञ्चमी विभक्ति अस्ति. शिवः इति प्रथमा विभक्ति एकवचनम् अस्ति. अर्जुनः शिवात् पाशुपतास्त्रं प्राप्तवान्. अर्जुनः अग्निः हरिः शब्दवत् अग्नेः गाण्डीवं प्राप्तवान्
प्राप्तवान् पूर्व इदानीमेव कृतवन्तः. तत्र अर्जुनः अग्नेः गाण्डीवं स्वीकृतवान् अतः अत्र प्राप्तवान् इति अस्ति. अत्र कार्य एकमेव कार्यमस्ति वा अथवा कार्यद्वयमस्ति वा तत्र तत्र रक्तवर्णकोष्टके रक्तवर्णकोष्टके तत्र किम् अस्ति. शिवः इति एकं पदं दत्तमस्ति. पाशुपतास्त्रम् इति एकं पदं दत्तमस्ति. शिवः इति पदस्य का विभक्ति आवश्यका भगिनि.
शिवः शिवात् पञ्चमी विभक्ति
तद् आवश्यकम् तस्य आवश्यकता अस्ति. अपि पाशुपतास्त्रम् इति पदस्य का विभक्तिरूपम् आवश्यकम्.
पाशुपतास्त्रं शिवात् कर्मपदम् आवश्यकं नाम
अतः किं का विभक्ति द्वितीयविभक्तिरूपम् आवश्यकम्. अत्र परिवर्तनम् अस्मिन् वाक्ये परिवर्तनं न भवति किन्तु कार्यं तु अस्ति अत्र. अस्तु समीचीनं भगिनि. समीचीनम्. अस्तु अग्रे उमा भगिनि.
इदानीं कर्णः इन्द्रः शक्त्यायुधं. कर्णः इन्द्रात् शक्त्यायुधं प्राप्तवान्.
समीचीनं. बाणचेतनी महोदय.
अर्जुनः अर्जुनः
न न इदानीं कृष्णः कृष्णः कृष्णः
कृष्णः पञ्चजनात् पाञ्चजन्यः प्राप्तवान्. ओ पञ्चजनः वा महोदय.
समीचीनं महोदय. इदानीम् अस्तु शुभा भगिनी अग्रे.
भीष्मः शन्तनो एकनिमेषः गुरुः गुरोः शन्तनोः इच्छामरणं प्राप्तवान्.
समीचीनं भगिनि. शन्तनोः इच्छामरणं प्राप्तवान् समीचीनम्. श्रीप्रिया भगिनी.
इन्द्रः कर्णात् कवचकुण्डलानि प्राप्तवान्.
समीचीनम्. नरेश महोदय.
कर्णः परशुरामात् ब्रह्मास्त्रविद्यां प्राप्तवान्.
ब्रह्मास्त्रविद्यां परशुरामात् ब्रह्मास्त्रविद्यां प्राप्तवान् समीचीनं महोदय. रघुपति महोदय अग्रे.
अर्जुनः देवाः इति बहुवचनमस्ति. देवाः देवेभ्यः दिव्यस्त्राणि प्राप्तवान्
समीचीनं. अस्तु गीताञ्जलि भगिनी.
युधिष्ठिरः यक्षात् सहोदराणां पुनर्जीवनं प्राप्तवान्
प्राप्तवान् तत्र कथा अस्ति खलु तत्र युधिष्ठिरस्य किं यक्षेण सह सम्भाषणं भवति
आम् आम्
कस्य वेगः अधिकः अस्ति एतादृशप्रश्नानि यक्षः पृच्छति खलु
आं महोदय अहं तालाब् नाम विस्मरामि द नेम् आफ् द पाण्ड् महोदय
ओ अस्तु अहं न जानामि भगिनि तस्य नाम अपि अस्ति वा ओ अस्तु कोऽपि स्मरति वा कोऽपि जानाति वा अस्तु अस्तु कोऽपि अन्य कोऽपि जानाति वा कुत्र यक्ष युधिष्ठिरोः युधिष्ठिरस्य सम्भाषणं तयोः सम्भाषणं कुत्र जातम् इति अस्तु अस्तु तदनन्तरम् इदानीम् उमा भगिनी अग्रे
भीमः बलरामात् गदायुद्धविद्या प्राप्तवान्
विद्यां प्राप्तवान् समीचीनं भगिनि अस्तु अग्रे बालचैतन्य महोदय अग्रिमम् आरम्भं करोति वत् अस्तु तत्र एतत् किम् अस्ति तत्र सम्भाषणम् अस्ति रमेशः सुरेशः अस्तु भानुचतनि महोदय अपि रघुपतिमहोदय कुर्वन्ति वा
आगच्छतु महोदय कः किं भवेत् महोदय
न जानामि अस्तु भानुचतनि महोदय आरम्भं करोतु भवान् रमेशः रघुपतिमहोदय सुरेशः
सुरेश अद्य भवान् प्रातः कुत्र गतवान् अष्टवादनात् आरभ्य अहं भवतः गृहे एव आसम्
ह्यः मम मातुलः आगतवान् सः माम् इतः जन्तुशालां नीतवान्
जन्तुशालायां सिंहं दृष्टवान् वा
आम् भोः परन्तु सिंहः पञ्जरात् बहिः एव भ्रमति वयं याने उपविश्य तं दृष्टवन्तः तत्र एकः आरक्षकः एकमृगं सिंहात् रक्षितवान् मम तु सिंहात् भीतिः
कदा ततः गृहम् आगतवान्
नववादनात् द्वितीयवादन नववादनात् द्विवादनपर्यन्तम् अहं जन्तुशालायाम् एव आसम् द्विवादने जन्तुशालायाः बहिः आगतवान् चतुर्वादने गृहं प्राप्तवान् पञ्चवादनात् परम् अहं मम गृहे एव आसम्
समीचीनं धन्यवादः तत्र विषयः कः इति तत्र अधोभागे दत्तमस्ति अवधेयम् इति तत्र किं
आरभ्य बहिः रक्षति परं भयम् इत्येषां प्रयोगे पञ्चमी विभक्तिः सिंहात् रक्षति अथवा बहिः गृहात् बहिः
जन्तुशालायाः बहिः गृहात् बहिः पञ्जरात् बहिः अष्टवादनात् आरभ्य सिंहात् भीतिः अपि पञ्चवादनात् परं परम् इत्युक्ते तदनन्तरं पञ्चवादनानन्तरं तदनन्तरम् अहं गृहे एव आसम् इति तत्र कोऽपि प्रश्नः अस्ति वा
कारकविभक्ति न उपपदविभक्ति यत्र एतानि पदानि उपयुज्यन्ते तत्र पञ्चमीविभक्ति भवति इति
उपपदं
किं
पदस्य समीपे अस्ति तद् विभक्तिः अस्ति तद् उपपदविभक्ति यदा एतत् आरभ्य इति पदम् उपयुज्यामः तदा विभक्तिः
तस्य पूर्वपदस्य विभक्तिः
तस्य पूर्वपदस्य विभक्तिः वदति तस्य पूर्वपदम्
तस्य पूर्वपदम् उपपदं तस्य पूर्वपदम् उपपदं समीपम् इति तत्र उपपदं तत्र सन्तोषेण गायति तत्र सन्तोषेण इति भवति उपपदं गायति इति क्रियापदस्य तादृश अत्र आरभ्य इति पदं तस्य पूर्वपदम् अस्ति अष्टवादनात् अष्टवादनात् इति उपपदस्य पञ्चमीविभक्तिरूपं भवति
ओके धन्यवादः
महोदय सर्वे म्यूट् कुर्वन्तु कृपया
महोदय भवतः एव एको आगच्छति महोदय
नरेश महोदय
सत्यं किन्तु अहं तु किमपि आह्वयामि न
अस्तु
महोदय रक्षति इति तु क्रियापदं नास्ति वा महोदय तत्
हा रक्षति कः रक्षति इति अस्ति तत्र वाक्यं पश्यतु तत्र आरक्षकः एकं मृगं सिंहात् रक्षितवान् तत्र एतद् वाक्यं स्वीकुर्मः आरक्षकः एकं मृगं सिंहात् रक्षति अत्र रक्षति इति क्रियापदं तत्र कः रक्षति आरक्षकः रक्षति
आरक्षकः
हा किं रक्षति
मृगं
मृगम् एकं मृगं रक्षति किन्तु तत्र वयं प्रष्टुं शक्नुमः कस्मात् रक्षति कस्मात् रक्षणं करोति इति अतः सिंहात् रक्षति
सिंहात् मृगं रक्षति सत्यं महोदय अतः तत् उपपदं न भवति महोदय
इत्युक्ते तत्र वयं जानीमः किं तत्र संस्कृतभाषायां तत्र पदं कुत्रापि भवेत् वाक्ये
महोदय
हा किन्तु विभक्ति दृष्ट्वा वयं जानीमः तस्य कार्यं वाक्ये किम् इति खलु हा किन्तु सिंहात् इति अत्र हा अत्र सिंहात् इति मृगस्य पूर्वं स्थापयामश्चेत् अपि कोऽपि समस्या न भवति कापि समस्या न भवति किन्तु तत्र किं गृहात् आगतवान् मृगात् रक्षितवान् इति अस्ति किन्तु तत्र किञ्चित् समस्या तत्र काचित् समस्या भवति खलु
आं महोदय
हा किन्तु यदि तादृशः नास्ति केवलं सरलवाक्यं अत्र किम् आरक्षकः एकं मृगं सिंहात् रक्षितवान् तत्र सिंहात् कुत्र कुत्रापि भवतु चिन्ता नास्ति इति
महोदय
एकः प्रश्नः अस्ति महोदय अत्र पञ्जरात् बहिः भ्रमति इति अस्ति किन्तु षष्टिविभक्तिः अपि सम्यक् एव खलु बहिः अन्ते एतौ पदौ
हा सत्यं भगिनि सत्यं प्रायश सत्यं तत्र बहिः इति तत्र पञ्चमी अपि भवति गृहस्य बहिः गृहात् गृहस्य अस्तु एकनिमिष चिन्तयामः गृहस्य अन्ते इति तत्र तु अन्ते इति वदामः चेत् तत्र षष्टिः एव भवति इति मन्ये किन्तु गृहस्य बहिः अपि भवति इति मन्ये भगिनि इति मन्ये एकवारं द्रष्टव्यं किन्तु सत्यमिति चिन्तयामि गृहस्य बहिः इति
न महोदय
गृहात् बहिः वा गृहात् बहिः एव वा एकनिमिषः तत्र अहा अस्तु किमर्थमिति वदति वा भगिनि तत्र गृहात् तत्र हा तत्र विभक्ति विकल्पः अस्ति न वा इति हा
बहिः अस्ति चेत् पञ्चमी एव महोदय अन्तः अस्ति चेत् षष्टिः एव
षष्टिः एव अस्तु 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 भगिनि धन्यवादः अस्तु हा अहं चिन्तितवान् प्रायश अस्तु धन्यवादः भगिनि हा अस्तु हा अस्तु समीचीनम् अस्तु
आरभ्य इति पदम् उपयोगं करोमः चेत् अष्टवादनतः श्वः आरभ्य तत्र श्वः ह्यः
अद्य तत्र श्वः अद्य तत् ते तु अव्ययपदं खलु
अव्ययम् इत्युक्ते
अव्ययं यस्य तत्र छ इति अस्ति तत्र विभक्तिवचनं किमपि न भवति तत्र अद्य इति पदस्य अद्य इति तु तत् अव्ययम् अस्ति तत्र विभक्ति नास्ति
अद्य स्थाने यदा अहं प्रातःकाल उपयोगं करोमि प्रातःकाल आरभ्य शुद्धं वा अशुद्धं
न न न प्रातःकालात् इति
प्रातःकालात् आरभ्य तत्र पञ्चमी भवति
पञ्चमी भवति किन्तु अद्य आरभ्य ह्यः आरभ्य श्वः आरभ्य
अद्य श्वः
अव्ययं
किम् अव्यय
पदम्
ओके अव्ययानि ओके
अस्तु अन्यप्रश्नः
पूर्वम् इति पदम् उपयोगं करोति चेत् अत्र पञ्चवादनात् परम् अहं मम गृहे एव आसम् इति अस्ति पूर्वम् इति पदं
तत्र चिन्तयामि तत्र यथा यथा अन्तः बहिः आसीत् तत्र षष्ठी भवति इति मन्ये तस्य पूर्वं परमिति स्थान परमिति अस्ति चेत् पञ्चमी
तदपि न महोदय यदा पूर्वः परं परः इति शब्दानाम् उपयोगम् अस्ति तत्र पञ्चमी एव भवति
सप्ताहात् पूर्वं
तस्य पूर्वम् इति भवति भगिनि
पूर्वं
तस्य पूर्वमिति
तस्मात् पूर्वम्
तस्मात् पूर्वमेव वा तस्य क्षम्यतां भगिनि अस्तु अस्तु धन्यवादाः अस्तु अस्तु मम मनसि तद् आसीत् अस्तु समीचीनं धन्यवादः भगिनि
कालः विषये कालः कालं वा कालविषये वदामः चेत् तत्र पञ्चमी भवति वा पञ्चवादनात् एकवर्षात्
पूर्वं युधिष्ठिरः भवति
तत्रापि पञ्चमी एव वा
अतः देशः कालः द्वयोः स्थाने तत्र पञ्चमी किन्तु अस्तु धन्यवादः भगिनि श्रीप्रिया भगिनि अहं चिन्तितवान् तत्र किमर्थम् इति न जानामि किन्तु मनसि आसीत् तत्र षष्टिः अपि भवति इति अस्तु तस्य पूर्वम् इति बहुवारम् अहं श्रुतवान् इति मन्ये अस्तु तस्मात् पूर्वं तावत् तदेव समीचीनम् अस्तु 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 धन्यवादः अस्तु अन्यप्रश्नः अत्र अस्तु तर्हि तत्र अग्रिम अभ्यासः कुर्मः तर्हि तत्र कः आरम्भं करोति अथवा नरेश महोदय आरम्भं करोति वा अग्रिम अभ्यासः नरेश महोदय अस्ति वा ओ अस्तु श्रीप्रिया भगिनी आरम्भं करोति वा
आवरणे दत्तानां शब्दानां पञ्चमीविभक्तिरूपैः यथोदाहरणं स्थानानि पूरयत उदाहरणं नगरात् बहिः नदी प्रवहति नगरम् इति अस्ति प्रकोष्ठात् बहिः बालाः क्रीडन्ति
समीचीनं भगिनि प्रकोष्ठात् इति अस्तु अग्रे रघुपति महोदय
बहिः वृक्षाः सन्ति गृहात् बहिः वृक्षाः सन्ति
वृक्षाः सन्ति समीचीनं अस्तु गीताञ्जलि भगिनि
वाटिकायाः बहिः मार्गाः सन्ति
मार्गाः सन्ति समीचीनं नरेश महोदय अस्तु उमा भगिनि
पञ्चवादनात् आरभ्य मन्दिरम् उद्घाटितं भवति
समीचीनं भगिनि अस्तु अग्रे उषा भगिनी
आं महोदय. बाल्यकालः. बाल्यकालात् आरभ्य एव कृष्णः बहु चटुलः आसीत्.
हा समीचीनं भगिनि. हा भानुचेतनी महोदय अग्रे.
महोदय चतुलः अपि च चतुरः समान एव समान
अर्थः. चतुरः इति न न न न
चतुलः
चतुलः इत्युक्ते
चतुलः इति अहं चिन्तयामि मिश्चिवस् इति वा
मिश्चिवस्
प्रायः
चतुलः इति हा
कोऽपि झटिति दृष्ट्वा वदतु महोदय. पौषमासात् आरभ्य ज्येष्ठमासपर्यन्तम् उत्तरायणं भवति.
हा उत्तरायणं भवति. हा तत्र चटुलः इत्युक्ते वेल् बिहेव्ड् इति एव दत्तमस्ति. अहं चिन्तितवान् मिश्चिवस् इति. हा किन्तु तद् अत्र न भवति इति मन्ये. अस्तु शुभा भगिनी अग्रे.
सायङ्कालः. सः प्रतिदिनं सायङ्कालात् आरभ्य रात्रिपर्यन्तं गीताभ्यासं करोति.
हा श्रीप्रिया भगिनी अग्रे.
देवः सज्जनान् दुष्टेभ्यः रक्षति.
हा दुष्टेभ्यः रक्षति. हा तत्र कर्मपदं किमस्ति?
सज्जनान्
सज्जनान् इति समीचीनं. हा रघुपति महोदय.
आरक्षकाः देशं रक्षन्ति. देशं चोरेभ्यः रक्षन्ति.
हा चोरेभ्यः देशं रक्षन्ति समीचीनं. हा गीताञ्जलि भगिनि.
सैनिकाः शत्रवः शत्रुभ्यः राष्ट्रं रक्षन्ति.
हा समीचीनं भगिनि. शत्रुभ्यः उकारान्त पदम् अस्तु. नरेश महोदय न श्रूयते महोदय अस्ति वा? नरेश महोदय
सैनिकाः नो
हे देव
मां संकटानि संकटेभ्यः रक्ष.
हे
देव मां संकटेभ्यः रक्ष.
हा समीचीनं महोदय. हा तत्र माम् इति
कर्मपदं द्वितीयविभक्ति
द्वितीयविभक्तिरूपं समीचीनं. हा उमा भगिनी अग्रे.
चैत्रं चैत्रात् परं वैशाखमासः भवति.
हा समीचीनम्. उषा भगिनी अग्रे.
शनिवासरः शनिवासरात् परं रविवासरः भविष्यति.
अग्रे बालचत्रि महोदय.
परिश्रमात् परं फलं प्राप्नुवन्ति जनाः.
परिश्रमात् परं फलं प्राप्नुवन्ति जनाः महोदय. क्षम्यतां.
समीचीनं. हा शुभा भगिनी अग्रे.
संस्कृतपाठनात् परं भवान् किं करिष्यति?
समीचीनं. हा श्रीप्रिया भगिनी अग्रे.
मूषकस्य बिडालात् भीतिः भवति.
हा मूषकस्य बिडालात् भीतिः भवति समीचीनं. हा रघुपति
महोदय.
हा भीरुः तु अल्पात् अपि बिभेति. हा समीचीनं. हा अस्तु गीताञ्जलि भगिनि.
कः कस्मात् अपि मा धीः इति विवेकानन्दः गर्जितवान्.
तत्र बीः इति रूपं किम् इति कोऽपि जानाति वा?
लोट् महोदय. लोट्
हा प्रायशः लोट् इति त्वम् इति मध्यम पुरुष एकवचने इति मन्ये. हा लोट् प्रायशः अस्ति, प्रायशः तदेव अस्ति भगिनि. हा द्रष्टव्यम् एकवारं, किन्तु प्रायशः तदेव. हा मा मा हा भीहि भीतिः मास्तु. हा
भीतिः मास्तु अत्र
इति अर्थे. हा इति समीचीनम् अस्तु. हा ओ ओ अग्रिमपुटे एव पूर्वम् इति दत्तमस्ति भगिनि. शुभ भगिनि अत्र एव. शुभ भगिनि अग्रे पठति वा.
मञ्जूषायां विद्यमानानां शब्दानां साहाय्येन पूर्वं परम् उपयुज्य यथोदाहरणं वाक्यानि वदत. साङ्ख्ययोगः कर्मयोगात् पूर्वः. साङ्ख्ययोगः अर्जुनविषादयोगात् परः.
हा इदानीम् उत्तरं प्राप्तं खलु, पञ्चमविभक्ति एव इति.
आं महोदय.
हा 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 अस्तु. श्रीप्रिया भगिनि समीचीनमस्ति भगिनि. हा अत्र एव आसीत् किन्तु न स्मृतवान् अहम्. हा किन्तु अत्र एव आसीत् किन्तु. हा अस्तु समीचीनम् अस्तु. हा अस्तु तर्हि नरेश महोदय अग्रे वदति वा तत्र.
उच्चैः पठत.
न महोदय तत्र बहु किमपि करणीयमस्ति, तत्र केवलम् उदाहरणं. शुभा भगिनी उदाहरणं पठितवती किन्तु तदनन्तरं किं.
कर्मयोगः ज्ञानकर्मसन्न्यासयोगः योगात् पूर्वः.
अपि
कर्म सन्न्यासयोगः ज्ञानकर्म.
अस्तु 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 तत्र एतत् चिन्तयामः. तत्र उदाहरणं किम् अस्ति इत्युक्ते महोदय, उदाहरणं किम् अस्ति इत्युक्ते उदाहरणस्य विषयः अस्ति साङ्ख्ययोगः. साङ्ख्ययोगः कस्मात् पूर्वः, साङ्ख्ययोगः कस्मात् परः इति उदाहरणम्. इदानीं कर्मयोगः कस्मात् पूर्वः, कर्मयोगः कस्मात् परः इति.
कर्मयोगः ज्ञानकर्मसन्न्यासयोगात् पूर्वः. कर्मयोगः साङ्ख्ययोगः योगात् परः.
परः इति समीचीनं महोदय. हा समीचीनम् अस्तु. अग्रे गीताञ्जलि भगिनि.
कर्मयोगः
कृतम् इदानीं ज्ञानकर्मसन्न्यासयोगः.
ज्ञानकर्मसन्न्यासयोगात् परं.
न भगिनि सुलभं भवति यत् तत्र एकं स्वीकृत्य तद् कस्मात् पूर्वः कस्मात् परः इति वदति चेत्.
आं महोदय.
हा इदानीं ज्ञानकर्मसन्न्यासयोगः
कर्मसन्न्यासयोगात् पूर्वः
अपि
च कर्म अपि च ज्ञानकर्मसन्न्यासयोगः
कर्मयोगात्
परः.
परः इति तत् स्वीकुर्मश्चेत् सुलभं भवति इति मन्ये. अस्तु इदानीं तत्र श्रीप्रिया भगिनि अग्रे.
कर्मसंन्यासयोगः अन्यासयोगः आत्मसंयमयोगात् पूर्वः. कर्मसन्न्यासयोगः ज्ञानकर्मसन्न्यासयोगात् परः.
परः समीचीनम्. हा उमा भगिनी.
आत्मसंयमयोगः ज्ञानविज्ञानयोगात् पूर्वः कर्मसन्न्यासयोगात् परः.
हा समीचीनं भगिनि. हा उषा भगिनि.
आं महोदय. ज्ञानविज्ञानयोगः अक्षरब्रह्मयोगात् पूर्वः अपि ज्ञानविज्ञानयोगः आत्मसंयमयोगात्
परः. समीचीनं. बालचैतन्य महोदय अग्रे.
अक्षरब्रह्मयोगः ज्ञानविज्ञानयोगः योगात् पूर्वः अक्षरब्रह्मयोगः ज्ञानविज्ञानयोगात् परः राजविद्या राजगुह्ययोगः योगात् पूर्वः
अस्ति. समीचीनम् अस्ति. तावदेव महोदय. अस्तु. तत्र केवलं तत्र एकमेव वाक्यमस्ति. तत्र रघुपति महोदय तत्र एकमेव अन्तिमवाक्यमस्ति तत्र.
राजविद्या राजगुह्ययोगः अक्षरब्रह्मयोगात् परमस्ति.
परः अस्ति. परः अस्ति. समीचीनं महोदय. हा तावदेव. अस्तु. तत्र किं कुर्मः? तत्र तत् शब्दस्य पञ्चमीविभक्तिरूपं
प्रश्नमेकमस्ति. पूर्वं परं अव्ययानि वा पूर्वः परः पूर्वा परा एवं भवति?
तत्र विशेषणम् अस्ति. पूर्वः लिङ्गभेदः अस्ति. पुल्लिङ्गे तत्र परः इति भवति, परा इति स्त्रीलिङ्गे, परम् इति
नपुंसकलिङ्गे.
तादृश एव पूर्वः पूर्वः पूर्वा पूर्वम् इति रूपत्रयं. अस्तु. तर्हि तत्र अस्तु. अग्रिमवर्गे तत्र तत् शब्दस्य एतत् शब्दस्य पश्यामः. तदनन्तरं श्लोकम् अपि अस्ति. अस्तु. अग्रिमवर्गे अन्यत् किमपि कुर्मः. तदनन्तरं तः पर्यन्तम् इति विषयः आगच्छति. अस्तु. अपि अस्तु. अस्तु. तर्हि अन्यप्रश्नः अस्ति वा? अस्तु. समीचीनं. हा अस्तु.
अनन्तरम् इति शब्दस्य उपयोगे षष्ठी अस्ति वा पञ्चमी अस्ति वा महोदय? अनन्तरं वादनात् अनन्तरम् अथवा वादनस्य
तत्र तस्य अनन्तरम् इति मम मनसि अस्ति भगिनि. हा अतः अहं चिन्तयामि षष्ठी इति. किन्तु यथा वयं दृष्टवन्तः तत्र पञ्चमी वा षष्ठी वा इति हा सम्यक्तया न स्मरामि. अतः एकवारं दृष्ट्वा पुनः वदामि भगिनि. किन्तु इदानीं मम मतमस्ति षष्ठी इति, तस्य अनन्तरम् इति.
धन्यवादः.
अस्तु भगिनि. अस्तु. अस्तु.
द्वयोः अपि समीपमेव इति.
कस्य अनन्तरम् इति तु समीचीनम् इति मन्ये महोदय. कस्मात् अनन्तरम् इति तत् साधु न वा इति न जानामि, न स्मरामि. अहमपि अन्वेषणं करोमि. भवन्तः अपि अन्वेषणं कुर्वन्तु. उत्तरं प्राप्य उत्तरं प्राप्तं चेत् हिन्दीभाषायां न तादृशं नास्ति. अस्तु. अस्तु भगिनि. केवलं षष्ठी एव. अस्तु. 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 तर्हि अग्रिमवर्गे मिलामः. धन्यवादः. सर्वेभ्यो नमः.
धन्यवादः.
धन्यवादः.
नमस्कारः.
धन्यवादः. शुभदिनं महोदय.
धन्यवादः.